परेजिवांसम् प्रपतो महेरनमहुभ्यः पन्थामरपस्पशानम् वैवस्वतम् सङ्गमरञ्जनाञ्जमम् राजानम् हविषादुपस्य यमो न गातुम् प्रथमो विवेदनैषा गव्योतिरवभर्तवा यत्रा नः पूर्वे पितरः परेजुरेनाजग्दानाः पथ्या अनुस्वाह मातले कव्यैर्यमो अङ्गिरोभिरबृहस्पतिरक्मभिरवावृधानः यांश्च देवा वा वृधुर्ये च देवान् स्वाहाञ्जे स्वधजाञ्जे मदन्ति इमञ्यमप्रस्तरमाहि सेदाङ्गिरोभिः पितृभिः संविधानः आत्मामन्त्रा कविशस्तावहन् वेदाराजन्हविषा मादयस्व अङ्गिरोभिरागहि यज्ञयेभिरयमवैरोवैरिहमादयस्व विवस्वन्तम् हुवेदः पिता तेऽस्मिन् यज्ञे बर्हिष्यारिषद्य अङ्गिरसो नः पितरो न भग्वा अथर्वाणो भृगवः सोम्यासाः तेषाम् वजम् समतौ यज्ञया रामपि भद्रेऽसौ मनसे स्याम प्रेहि प्रेहि वजभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेजुः उभाराजानास्वधजामदन्ताजमम् पश्यासि वरुणम् च देवाम् सङ्गच्छस्व पितृभिः संयमेनेष्टापोर्तेन परमेव्यो मन्न हित्वाजा पद्यम् पुनरस्तमेहि सङ्गच्छस्व धन्वा सुवर्चाः अपेतवे एतवित सर्पदातोऽस्मा एतम् पितरो लोकमक्रन् अहोभिरद्भिरक्तभिर्व्याक्तम् यमो ददात्यवसानमस्मै अनिद्रवसारमेजौ श्वानौ चतुरक्षौ शबलौ साधुना पथा अथ पितरान् सुमिदत्राम् उपेहि यमे रजे सधमादम् मदन्ति यौ ते श्वानौ जमरक्षितारौ चतुरक्षौ पथिरक्षे नृचक्षसौ ताभ्यामेनम् परिदेहि राजन् स्वस्ति चास्मा अनमेवम् च देहि उरोणसा वसुदृपा उदम् बलौ जपस्य दूतौ च रतो जनाम् अनु तावस्पभ्यम् दृशजे सूर्याज पुनर्दातामसु मध्येह भद्रम् यमाज सोमम् सुनुत यमाज जुहुता हविः यमम् ह यज्ञो गच्छत्यग्नितो ओतो अरम् कृतः यमाज घृतबद्धविर्जहोत प्रचतिष्ठत स नो देवेष्वाजमद्दीर्घमाजः प्रजीवसे यमाजमधुमत्तमम् राज्ञे हव्यम् जहोतना इदन्न परशिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्याः त्रिकद्रुकेभ्यः पददिषणुर्वीरे कविद्बृहत् तृष्टुब्गा यत्रे छन्दांसि सर्वाता यम आहिता